विबोधितस्य ध्वनिना घनानाम् हरेरपेतस्य च शैलरन्ध्रात् निरस्तधूमस्य च रात्रिवह्नेः विना तनुत्रेण रुचिं स भेजे. विबोधितस्येति घनानाम् ध्वनिना गर्जितेन विबोधितस्य शैलरन्ध्रात् कन्दरात् अपेतस्य निष्क्रान्तस्य हरेः सिंहस्य च तथा निरस्तधूमस्य गतधूमस्य रात्रिवह्नेश्च रुचिं शोभां भेजे. एतेन अस्य तीक्ष्णत्व वैरनिर्यातनत्व रणदुर्मदत्व मनस्वित्व तेजस्वित्वानि उक्तानि. अत्र रुचिमिव रुचिमिति सादृश्याक्षेपात् असम्भवद्वस्तुसम्बन्धी निदर्शनालङ्कारः मालया संसृष्टः.
अचित्ततायामपि नामयुक्ताम् अनूर्ध्वताम् प्राप्य तदीयकृच्छ्रे महीम् गतौ ताविशुधी तदानीम् विवव्रतुश्चेतन एव योगम्.
अचित्ततायामिति तदानीम् कवचपतनसमये महीम् गतौ इषुधी निषङ्गौ अचित्ततायाम् अपि अचेतनत्वेऽपि तदीयकृच्छ्रे स्वामिव्यसने युक्ताम् योग्याम् नाम किल अकिञ्चित्करत्वादिति भावः. अनूर्ध्वताम् अवाङ्मुखत्वम् प्राप्य चेतनया प्राणिसाधारणज्ञानेनेव योगम् सम्बन्धम् विवव्रतुरिवेति उत्प्रेक्षा. अचेतनत्वेऽपि अवाङ्मुखत्वादि चेतनधर्मयोगादिति भावः.
स्थितम् विशुद्धे नभसीव सत्त्वे धाम्ना तपो वीर्यमयेन युक्तम् शस्त्राभिघातैस्तमजस्रमीषः त्वष्टा विवस्वन्तमिवोल्लिलेख.
स्थितमिति विशुद्धे निर्मले नभसीव सत्त्वे सत्त्वगुणे स्थितम् तपोवीर्यमयेन तपोवीर्याभ्याम् आगतेन धाम्ना तेजसा युक्तम् तम् अर्जुनम् ईशः त्वष्टा विश्वकर्मा विवस्वन्तम् सूर्यमिव अजस्रम् निरन्तरम् शस्त्राभिघातैः शस्त्रकर्षणैः उल्लिलेख ततक्ष.
संरम्भवेगोज्झितवेदनेषु गात्रेषु बाधिर्यमुपागतेषु मुनेर्बभूवागणितेषु राशेः लौहस्तिरस्कार इवात्ममन्युः.
संरम्भेति संरम्भवेगेन सम्भ्रमातिशयेन उज्झितवेदनेषु त्यक्तदुःखेषु गात्रेषु बाधिर्यम् स्तैमित्यम् उपागतेषु सत्सु न गणिताः इषुराशयः येन तस्य अगणितेषु राशेः मुनेः अर्जुनस्य आत्ममन्युः स्वकोपः लोहस्य विकारः लौहः कार्ष्णायसः तिरस्क्रियते आच्छाद्यते अनेनेति तिरस्कारः कञ्चुकः इव बभूव. रोषवशात् न किञ्चित् प्रहारदुःखमज्ञासीदित्यर्थः. क्रोधैकवर्मणाम् वीराणाम् किमन्यैः लोहभारैरिति भावः. अथ युग्मेन आह.
ततोनु पूर्वायतवृत्तबाहुः श्रीमान्क्षरन्लोहितदिग्धदेहः आस्कन्द्यवेगेन विमुक्तनादः क्षितिम् विधुन्वन्निव पार्ष्णिघातैः
तत इति ततः अनन्तरम् अनुपूर्वौ पूर्वम् अनुगतौ गोपुच्छाकारौ आयतौ दीर्घौ वृत्तौ वर्तुलौ च बाहू यस्य सः श्रीमान् शोभावान् क्षरल्लोहितदिग्धदेहः स्रवद्रुधिरलिप्तगात्रः पार्ष्णिघातैः चरणतलाघातैः तद्ग्रन्थी गुटिके गुल्फौ स्त्रियाम् पार्ष्णिरधस्तयोः इत्यमरः क्षितिम् विधुन्वन् प्रकम्पयन्निव वेगेन आस्कन्द्य अभिद्रुत्य विमुक्तनादः सः अर्जुनः
सम्यम् गतेनाशनिना मघोनः शशङ्कखण्डाकृतिपाण्डुरेण शम्भुम् बिभित्सुर्धनुषा जघाना स्तम्बम् विषाणेन महानिवेभः
साम्यमिति मघोनः इन्द्रस्य अशनिना वज्रेण सह साम्यम् गतेन वज्रकल्पेन शशाङ्कस्य खण्डम् शकलम् तस्येव आकृतिः यस्य तद्वत् वक्रमित्यर्थः पाण्डुरम् च तद्वदेवेति भावः तेन शशाङ्कखण्डाकृतिपाण्डुरेण धनुषा शम्भुम् बिभित्सुः भेत्तुमिच्छुस्सन् महान् इभः गजः विषाणेन दन्तेन स्तम्बमिव जघान
रयेण सा सन्निदधे पतन्ती भवोद्भवेनात्मनि चापयष्टिः समुद्धता सिन्धुरनेकमार्गा परे स्थितेनौजसि जह्नुनेव
रयेणेति रयेण वेगेन पतन्ती सा चापयष्टिः भवस्य संसारस्य उद्भवः उत्पत्तिः यस्मात् तेन भवोद्भवेन ईश्वरेण परे ओजसि परमे ज्योतिषि स्थितेन जह्नुना राजर्षिणा समुद्धता अत्युत्कटा अनेकमार्गा त्रिस्रोताः सिन्धुः गङ्गेव आत्मनि सन्निदधे सम्यग् निहिता अन्तर्निलायिता इत्यर्थः
विकार्मुखः कर्म शुशोचनीयः परिच्युतौ दार्य इवोपचारः विचिक्षिपे शूलभृता सलीलम् सपत्रिभिर्दूरमदूरपातैः
विकार्मुक इति विकार्मुकः भग्नचापः अत एव परिच्युतौदार्यः दानवर्जितः उपचारः सत्कारः इव कर्मसु रणक्रियासु कृत्येषु च शोचनीयः शोच्यः अपूज्यश्च सत्त्वावष्टम्भेन अभग्नचित्तत्वाच्च सः अर्जुनः शूलभृता शिवेन सलीलम् सहेलम् यथा तथा अदूरपातैः अतिगाढप्रहारैः पत्रिभिः शरैः दूरम् अत्यन्तम् विचिक्षिपे नुन्नः
उपोढकल्याणफलोऽभिरक्षन् वीरव्रतम् पुण्यरणाश्रमस्थः जपोपवासैरिव संयतात्मा तेपे मुनिस्तैरिषुभिः शिवस्य
उपोढेति उपोढम् आसन्नम् कल्याणफलम् अस्त्रलाभरूपम् स्वर्गादिकम् च यस्य सः वीरव्रतम् आहवादनिवृत्तिरूपम् तीव्रम् तपश्च अभिरक्षन् पालयन् पुण्यः यः रणः एव आश्रमः तत्र तिष्ठतीति पुण्यरणाश्रमस्थः संयतात्मा नियमितचित्तः मुनिः अर्जुनः कश्चित् तपस्वी च तैः शिवस्य महादेवस्य इषुभिः शरैः जपोपवासैरिव तेपे तत्तः तपतेः कर्मणि लिट्
ततोऽग्रभूमिम् व्यवसाय सिद्धेः सीमानमन्यैरतिदुस्तरम् सः तेजःश्रियामाश्रयमुत्तमासिम् साक्षादहङ्कारमिवाललम्बे
तत इति ततः चापान्तर्थानानन्तरम् सः अर्जुनः अग्रभूमिम् विपदि गन्तव्यस्थानम् शरण्यमित्यर्थः कुतः व्यवसायसिद्धेः युद्धोद्योगसिद्धेः सीमानम् अवधिम् साधकतमम् इत्यर्थः अन्यैः परैः अतिदुस्तरम् दुरतिक्रमम् तेजःश्रियाम् प्रतापसम्पदाम् आश्रयम् हेतुमित्यर्थः उत्तमासिम् महाखड्गम् सन्महत् इत्यादिना समासः साक्षात् अहङ्कारम् सविग्रहम् अभिमानम् इव आललम्बे जग्राह
शरानवद्यन्ननवद्यकर्म चचारचित्रम् प्रविचारमार्गैः हस्तेन निस्त्रिंशभृता स दीप्तः सार्कांशुना वारिधिरूर्मिणेव
शरानिति अनवद्यकर्म अगर्ह्यकर्म अवद्यपण्य इत्यादिना निपातः शरान् अवद्यन् खण्डयन् वीरः निस्त्रिंशभृता खड्गयुक्तेन हस्तेन सार्कांशुना अर्कांशुसहितेन ऊर्मिणा तरङ्गेण वारिधिरिव दीप्तः दीपितः सः अर्जुनः प्रविचारमार्गैः खड्गिनाम् गतिभेदैः चित्रम् यथा तथा चचार
यथा निजे वर्त्मनि भाति भाभिः छायामयश्चाप्सु सहस्ररश्मिः तथा नभस्याशुरणस्थलीषु स्पष्टद्विमूर्तिर्ददृशे स भूतैः
यथेति भाभिः दीप्तिभिः उपलक्षितः स्युः प्रभारुग्रचित्स्वड्भा भाश्चविद्युतिदीप्तयः इत्यमरः सहस्ररश्मिः अर्कः यथा निजे वर्त्मनि नभसि छायामयः प्रतिबिम्बरूपः सन् अप्सु स्पष्टद्विमूर्तिः भाति तथा सः अर्जुनः नभसि आकाशे रणस्थलीषु च स्पष्टे द्वे मूर्ती यस्य सः स्पष्टद्विमूर्तिः सन् भूतैः गणैः ददृशे दृष्टः यथा एकः अर्कः नभसि अप्सु च अनेक इव दृश्यते तथा सोऽपि दिवि भुवि च आशु सञ्चारात् यौगपत्यभ्रमादेव एकोऽपि अनेक इव गणैः दृष्टः इत्युत्प्रेक्षा
शिवप्रणुन्नेन शिलीमुखेन सर्वप्रदेशादपवर्जिताङ्गः ज्वलन्नसिस्तस्य पपातपाणेः घनस्य वप्रादिव वैद्युतोऽग्निः
शिवेति शिवेन प्रणुन्नः क्षिप्तः तेन शिलीमुखेन सरुप्रदेशात् मुष्टिप्रदेशम् अवधिम् कृत्वा सरुः खड्गादिमुष्टौ स्यात् इत्यमरः अपवर्जिताङ्गः लूनविग्रहः असिः खड्गः तस्य अर्जुनस्य पाणेः करात् घनस्य मेघस्य वप्रात् तटात् वैद्युतः विद्युत्सम्बन्धि अग्निरिव ज्वलन् पपात
अक्षिप्तचापावरणेषु जालः छिन्नोत्तमासिः समृधे वधूतः रिक्तः प्रकाशश्च बभूव भूमेः उत्सादितोद्यान इव प्रदेशः
आक्षिप्तेति आक्षिप्तानि अपहृतानि चापावरणेषु जालानि धनुर्वर्म बाणसमूहाः यस्य सः छिन्नोत्तमासिः लूनमहाखड्गः मृधे रणे
मृधमास्कन्दनम् सङ्ख्यम् इत्यमरः
अवधूतः निरस्तः सः अर्जुनः उत्सादितम् उत्पाटितम् उद्यानम् यस्य सः भूमेः प्रदेशः भूमिभागः इव रिक्तः शून्यः प्रकाशः निःसम्बाधश्च दृश्य इति यावत् बभूव
सखण्डनम् प्राप्य परादमर्षवान् भुजद्वितीयोऽपि विजेतुमिच्छया ससर्ज वृष्टिम् परिरुग्णपादपाम् द्रवेतरेषाम् पयसामिवाश्मनाम्
स इति परात् परस्मात् शत्रोः पूर्वादिभ्यो नवभ्यो वा इति विकल्पात् न स्मादादेशः खण्डनम् भङ्गम् प्राप्य अमर्षवान् सः अर्जुनः भुजद्वितीयः भुजमात्रसहायस्सन्नपि विजेतुमिच्छया द्रवेभ्यः इतराणि तेषाम् द्रवेतरेषाम् कठिनानाम् पयसामिव करकाणामिवेत्यर्थः अश्मनाम् सम्बन्धिनीम् परिरुग्णाः भग्नाः पादपाः यया सा ताम् वृष्टिम् ससर्ज अश्मभिः जघान इत्यर्थः
नीरन्ध्रम् परिगमिते क्षयम् पृषक्कैः भूतानामधिपतिना शिलावितानि उच्छ्राय स्थगित नभो दिगन्तरालम् चिक्षेप क्षितिरुहजालमिन्द्रसूनुः
नीरन्ध्रमिति शिलावितानि शिलाजाले भूतानाम् अधिपतिना शिवेन पृषत्कैः बाणैः क्षयम् परिगमिते नीते सति इन्द्रसूनुः अर्जुनः उच्छ्रायेण उत्सेधेन स्थगितम् आच्छादितम् नभः दिशाम् अन्तरालम् च येन तत् नीरन्ध्रम् सान्द्रम् रोहन्तीति रुहाः इगुपधलक्षणः कप्रत्ययः क्षितौ रुहाः वृक्षाः तेषाम् जालम् चिक्षेप प्रेरयामास उच्छ्रायम् गमितवती इति प्रामादिकः पाठः
निःशेषम् शकलितवल्कलाङ्गसारैः कुर्वद्भिः भुवमभितः कषाय चित्राम् ईशानः सकुसुमपल्लवैर्नगैस्तैः आतेने बलिमिव रङ्गदेवताभ्यः
निःशेषमिति ईशानः शिवः शानस्प्रत्ययः निःशेषम् यथा तथा शकलितानि वल्कलानि त्वचः अङ्गानि शाखाः सारः मज्जा च येषाम् तैः भुवम् अभितः कषायः यः रागः स्वरसेन रञ्जनमिति यावत् रागे क्वाथे कषायोस्त्री इति वैजयन्ति तेन चित्राम् विचित्रवर्णाम् कुर्वद्भिः सकुसुमपल्लवैः तैः नगैः वृक्षैः अङ्गे रणरङ्गे याः देवताः ताभ्यः बलिम् पूजामिव आतेने
उन्मज्जन्मकर इवामरापगायाः वेगेन प्रतिमुखमेत्य बाणनद्याः गाण्डीवी कनकशिलानिभम् भुजाभ्याम् अजघ्ने विषमविलोचनस्य वक्षः
उन्मज्जन्निति गाण्डीवी अर्जुनः उन्मज्जन् उत्तरन् मकरः जलग्राहविशेषः अमरापगायाः गङ्गायाः इव बाणनद्याः बाणप्रवाहात् वेगेन प्रतिमुखम् अभिमुखम् एत्य आगत्य कनकशिलानिभम् कनकग्रहणम् काठिन्यातिशयद्योतनार्थम् विषमविलोचनस्य त्र्यम्बकस्य वक्षः हृदयम् भुजाभ्याम् आजघ्ने ताडितवान् अत्र आत्मनेपदम् विचार्यम् आङो यमहनः इत्यत्र अकर्मकाधिकारात् स्वाङ्गकर्मकाच्च इति वक्तव्यत्वात् न च शिवस्य प्रतिमुखमिति अन्वयात् कनकशिलानिभम् कनकनिकषतुल्यम् श्यामम् स्ववक्षः आजघ्ने इत्यर्थः इति वाच्यम् अनौचित्याचरणात् न हि युद्धाय सन्नद्धाः निपुणाः अपि मल्लाः स्ववक्षस्ताडनम् आचरन्ति किन्तु स्वभुजास्फालनम् किञ्च अनन्तरम् वक्ष्यमाण भवकर्तृकाविनयसहनविरोधात् वक्ष एवेति अन्वयस्य अव्यवधानाच्च पूर्वैरेव दूषितत्वात् अतः व्याकरणान्तरात् द्रष्टव्यम् केचित्तु त्र्यम्बकस्य वक्षः प्राप्य इति अध्याहारम् स्वीकृत्य अकर्मकत्वात् आत्मनेपदम् आहुः
अभिलषत उपायम् विक्रमम् कीर्तिलक्ष्म्योः असुगममरिसैन्यैः अङ्कमभ्यागतस्य जनक इव शिशुत्वे सुप्रियस्यैकसूनोः अविनयमपि सेहे पाण्डवस्य स्मरारिः
अभिलषत इति कीर्तिलक्ष्म्योः उपायम् साधनभूतम् अरिसैन्यैः असुगमम् दुरासदम् विक्रमम् अभिलषतः सूनुपक्षे यत्किञ्चित् महत्फलम् प्रार्थयमानस्य इत्यर्थः अत एव अङ्कम् अन्तिकम् अभ्यागतस्य उत्सङ्गम् आरूढस्य च पाण्डवस्य अविनयम् स्मरारिः अनेन भक्तवात्सल्यमेव सहनकारणमिति सूच्यते शिशुत्वे शैशवे सुप्रियस्य परमप्रेमास्पदस्य कुतः एक एव सूनुः तस्यैकसूनोः अविनयम् जनक इव सेहे सोढवान् इति श्रीमहामहोपाध्याय कोलाचलमल्लिनाथसूरिविरचितायाम् किरातार्जुनीयकाव्यव्याख्यायाम् घण्टापथसमाख्यायाम् सप्तदशः सर्गः समाप्तः